सहस्रशेषा पुरुषः सहस्राक्षः सहस्रपाद सभूमिं विश्वतो भित्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुषये वेदकम् सर्वम् यद्भोदयश्च भव्यम् भूतावृतत्तस्येषानः यदन्नेनादिलोहति वेदावानस्य महिमा अथो ज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतन्निमे त्रिपादोऽर्थमुदयत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वं यद्गामत् साचनामशने अभि तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अध्यरिच्छत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमदन्वत वसन्तोहस्यासीराज्यम् ग्रीष्मयुग्मशरद्भविः सप्तास्यासन्परिधयः त्रिसप्तसविधकृताः देवायज्ञन्वानाः अवध्वन् पुरुषम् वशन् तैयज्ञम् बर्हिः प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यायषयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृतम् बृहदाज्यम् अशोकस्तायुस्तक्रेवायव्यानि आरण्याम् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि यज्ञे छन्दागुंसि यज्ञे तस्मात् यजस्तस्मादजायत तस्मादश्वाजायन्त वेगे चो भयाजतः गावो हयज्ञे तस्मात् तस्माद्धाराजावयः यत्पुरुषं यदतुः कथिता व्यकल्पयन् मुखं किमस्य को बाहो काहोरोपादामुच्छेदे ब्राह्मणोऽस्य मुखमासीत् बाहोरारण्यकृतः ओरोदरस्य यद्वैश्यः अद्भागं सोऽत्र अजायत चन्द्रमा मनसो जातः चक्षोसोऽज अजायत मुखालिङ्गश्चाग्निश्च प्राणाद्वायुरजायत माभ्यासेदन्तरिक्षम् शेषाद्यौ समवर्तत पद्भ्यां भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् नित्यवर्णन्तमसस्तु भारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदनियतास्ते ध्याता पुरस्ताद्यमुदा जहाद शक्रप्रभिभ्रान्तदिशश्चतस्रः तमेवं विद्वानमृतैः भवति मान्यः पञ्चायनाय विद्यते यज्ञेन यज्ञमयजन्तदेवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अध्वः सम्भोदः पृथिव्येरथाश्च विश्वकर्मणः समवर्धदाधि तस्य त्वष्टा विदधद्रूपमेदे तत्पुरुषस्य विश्वमादानमग्रे वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णन्तमसंस्परस्तात् तमेवम् विद्वानमृत इह भवति नान्यम् पञ्चा विद्यते जनाय प्रजापतिश्चरति गर्भे हन्तः अजायमानो बहुधा विजायते तस्य धीरा परिदानन्ति योनिम् मदीजीनां मदमिच्छन्ति वेधसः यो देवे धारपति यो देवानां पुरोहितः भूर्भो यो देवेभ्यो जातः नमो ऋताय ब्राह्मये ऋजं ब्राह्मं जनयन्तः देवा अग्रे तदब्रुवन् यस्यैवं ब्राह्मणा विद्यात् तस्य देवाः संवसे ग्रीष्ठते लक्ष्मीस्तपत्न्यौ अहोरात्रे पार्श्वे नक्षत्रानिरूपम् अश्विनौ यात्तम् इष्टं मनिधान अमुं मनिधान सर्वं मनिधान ॐ शान्तिः शान्तिः शान्तिः।